सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ श्लोकान् शृणुमः, पश्चात् पाठं प्रति सरेम। भगिनी स्मारयतु।
येनाक्षरसमाम्नायम् अधिगम्यं महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। येन द्योता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनीये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणदोऽस्मि मुनित्रयम्।
अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः पठ्यमानः अस्ति। अभ्यासः समापितः। करपत्रस्य अधोभागे परिशिष्टम् अस्ति। परिशिष्टम् इति नपुंसकलिङ्गपदमस्ति। परि उपसर्गपूर्वक शिशुधातुतः कटाप्रत्ययस्य योजनेन सन्धिकार्यमस्ति। ष्टुनाष्टुः इति सूत्रेण शकारस्य प्रभावेण तकारस्य स्थाने मूर्धन्यटकारः आयाति। ष्टुनाष्टुः इति सूत्रेण ष्टुत्वसन्धिकार्यं भूत्वा परिशिष्ट इति प्रातिपदिकं सिद्ध्यति। परिशिष्टप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु क्तान्तरूपाणि साधयितुं शक्नुमः। तत्र एकं सूत्रमस्ति, नपुंसके भावे क्तः इति सूत्रमस्ति। तेन सूत्रेण अत्र परिशिष्टम् इति नपुंसकलिङ्गपदं भावार्थे दीयते। अद्य परिशिष्टम् इत्यस्मात् आरभ्य पठेम। एतावता क्तान्तरूपं परिशिष्टम् इति। लक्ष्मी भगिनी, भवती एव आरम्भं करोतु। महोदय, भवान् किम् उक्तवान्?
स्पेलिङ्ग् मिस्टेक् अस्ति वा? परिशिष्टाम् इति स्त्रीलिङ्गपदं लिखन् अस्ति तत्र।
मुद्रणदोषः।
उभैरुक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः कित् ङित् नित् ङित् नित् कित् ङित् ङित् नित् भिन्नः। एतावता अस्माभिः दृष्टं यत् तुदादिगणे इकः गुणः न भवति। तत्र एकं सूत्रम् उक्तम् आसीत् किङ्ति च अत्र अस्य सूत्रस्य अर्थः स्थापितः।
तावत् वदतु।
उपयुक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः आर्धधातुकप्रत्ययाः त्रिविधाः कित् ङित् अनन्तरं ङित् ङित् अनन्तरं कित् ङित् 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 भिन्नः। एते त्रिविधाः सन्ति।
उपर्युक्तम् इत्यत्र सन्धिकार्यमस्ति, वदतु।
उपरि
योगः उक्तम्।
ओ,
उपर्युक्तम्। इकारस्य स्थाने यकारः आगतः। यण् सन्धिकार्यमस्ति। आहत्य आर्धधातुकप्रत्ययाः त्रिविधाः कित् णित् प्रत्ययाः णित् णित् प्रत्ययाः कित् णित् 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 भिन्नः एवं त्रिविधाः प्रत्ययाः सन्ति। कित् प्रत्ययानां प्रसङ्गे भवती किं जानाति, वदतु।
कित् अस्ति चेत् गुणः न भवति, गुणस्य निषेधः भवति। कित् ङित् अस्ति चेत् इति सूत्रेण गुणनिषेधः।
तादृशप्रत्ययम् एकं प्रत्ययं वदतु।
तवत् प्रत्ययः तवत् प्रत्ययः।
उत्तमं। क्ता प्रत्ययः, क्तवत् प्रत्ययः, क्तिन् प्रत्ययः, क्त्वा प्रत्ययः, यक् प्रत्ययः, एते प्रत्ययाः कित् प्रत्ययाः। नित् प्रत्ययानां प्रसङ्गे एकम् उदाहरणं वदतु।
नित्
प्रत्ययः कदा नित् भवति? कीदृशप्रत्ययस्य नाम नित्?
नकार इत्संज्ञकस्य नाम नित्।
साक्षात् प्रत्यये नित्वम् अस्ति चेदपि नित् इति वदामः। नो चेदपि सार्वधातुकप्रत्ययः अपित् अस्ति चेत् सार्वधातुकम् अपित् इति अतिदेशसूत्रेण यः प्रत्ययः सार्वधातुकः अपित् अस्ति तादृशप्रत्यये नित्वम् अध्यारोप्यते। तेन कारणेन अपि नित्वं भवति। तादृशप्रत्ययस्य कृते एकम् उदाहरणं वदतु।
तस् इति अत्र पित् नास्ति। तस् थस् मस् एते
तस् प्रत्ययः सार्वधातुकप्रत्ययः एव अपित्वात् नित्वत् प्रवर्तते खलु।
आम्,
तुदादिगणस्य प्रसङ्गे किमर्थम् उक्तमस्ति अत्र तुदादिगणस्य प्रसङ्गः अस्मिन् परिच्छेदे किमर्थं लिखितमस्ति तुदादिगणः अपि च नित्वं द्वयोर्मध्ये सम्बन्धः कः
अत्र तिंशित् सार्वदादिकम् अत्र षित् षित् अस्ति पित् नास्ति अतः
तदेव पुनः वदतु स्पष्टतया वदतु तुदादिगणे किं भवति
तुदादिगणे षित् अस्ति पित् नास्ति अपित् सार्वदादिकं सार्वदादिकम् अपित् इति सूत्रेण गुण भवति गुणः न भवति
गुणः न भवति
अपित् सार्वदादिकं ङित्वद् भवति
उत्तमं तुदादिगणे शा इति विकरणप्रत्ययः आयाति कर्तरर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य कर्तरिषप् सूत्रं प्रबाध्य धातुः तुदादिगणे अस्ति चेत् तुदादिभ्यः शः सूत्रेण शा विकरणप्रत्ययः आयाति शा षित्वात् सार्वधातुकः किन्तु पित्वं नास्ति शा विकरणप्रत्ययः षित् एव किन्तु अपित् अपित् अस्ति इति कारणतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् प्रवर्तते तदर्थं तुदादिगणीयधातुषु न कदापि गुणकार्यं भवति सार्वधातुकप्रक्रियायाम् अपित्वात् गुणनिषेधः गुणनिषेधः क्णिति च सूत्रेण भवति क्णिति च सूत्रस्य प्रसङ्गे भवती यद् जानाति तद्वदतु क्णिति च इति सूत्रम् अत्र पश्यतु रूपं दृष्ट्वा वदतु कथं लिखितमस्ति
अस्ति चेत् गुणनिषेधः भवति
कित् गित् नित् अस्ति इति उक्तवती तत्र गकारः नास्ति सूत्रे किमर्थम्
गकारस्य स्थाने ककारः भवति
केन सूत्रेण
न स्मरामि
अत्र ककारद्वयं लिखितमस्ति खलु प्रथमककारः अस्ति द्वितीयककारः अपि अस्ति अत्र एकवारं सूत्रं पठतु भवति एव
किञ्चित् च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणः वृद्धिः न भवति यः प्रत्ययः गित् अथवा अस्ति चेत् तस्मात् प्रत्ययात् इकः स्थाने गुणः वा वृद्धिः वा भवति किन्तु अत्र निषेधः अस्ति न भवति किङ्ति च इति सूत्रं सूत्रेण
उत्तमं किङ्ति च सूत्रार्थः कः इति पश्यामश्चेत् यः प्रत्ययः गित् खित् नित् अस्ति तादृशप्रत्ययस्य कारणेन इकः स्थाने गुणः वा वृद्धिः वा न भवति इति सूत्रेण उच्यते क्णिति च इत्यत्र आदौ गकारः अस्ति गित् इति अस्ति गकारः कथं ककारः अभवत् इति प्रश्ने सति तत्र सन्धिकार्यमस्ति वदतु
गकारः चत्वं भवति
चत्वं कथं भवति विवृणोतु
चर्वर्णः आदेशः भवति
चर्वर्णः आदेशः भवति खरीपरे अत्र खर्वर्णः कः चर्वर्णः कः कस्मिन् स्थाने कः वर्णः आयाति गकारः झल्वर्णः अस्ति द्वितीयककारः खर्वर्णः खर्वर्णे परे झल् स्थाने चरादेशः भवति चर्वर्णः इत्युक्ते वर्गस्य प्रथमसदस्याः कचट तप एते वर्णाः चर्वर्णाः अत्र गकारस्य स्थाने ककारः आगतः खरीच सूत्रेण अतः एवं लिखितमस्ति ककारद्वयं लिखितमस्ति अत्र इत्युक्ते प्रथमककारः गकारस्य स्थाने आगतः किमिति च सूत्रं किं करोति इति वयं ज्ञातवन्तः एतावत्पर्यन्तम् अस्मिन् करपत्रे यानि यानि उदाहरणानि वयं दृष्टवन्तः तेषु उदाहरणेषु कित्वस्य प्रसङ्गे ज्ञातवन्तः नित्वस्य प्रसङ्गे अपि वयं पठितवन्तः किन्तु गित्वस्य प्रसङ्गे इदानीं पर्यन्तं न पठितं संस्कृतभाषायां गित्वस्य आवश्यकता अस्ति वा चिन्तनं किम् अस्ति गित्वस्य प्रसङ्गे इति अग्रे लिखितम् अस्ति. संक्षेपरीत्या ज्ञातुमिच्छामश्चेत् संस्कृतभाषायां गित्वस्य प्राधान्यम् अस्ति, किन्तु अस्मिन् करपत्रे अष्टाध्याय्याः समग्रदृष्टिः इति लिखितमस्ति खलु, अतः गित्वस्य प्रसङ्गे अपि पठनीयं खलु. कित्वप्रसङ्गे पठितं, नित्वप्रसङ्गे पठितं, किन्तु गित्वस्य प्रसङ्गे किमपि न ज्ञातम् इदानीं पर्यन्तम्. संस्कृतभाषायाम् एकः एव गित् प्रत्ययः अस्ति, घ्नु इति प्रत्ययः अस्ति. घ्नु इति प्रत्ययम् उपयुज्य एकमेव सूत्रम् उपयुज्य ग्लाजिस्थश्च घ्नुः इति सूत्रम् उपयुज्य केवलं चत्वारि पदानि साधितानि. तेषु चतुर्षु पदेषु अपि एकमेव पदं गित्वस्य आधारेण निर्मितम्. सम्पूर्णसंस्कृतभाषायाम् एकमेव पदं स्थास्नुः इति एकमेव पदं ग्लाजिस्थश्च घ्नुः इति सूत्रम् उपयुज्य घ्नु प्रत्ययस्य गित्वम् उपयुज्य निर्मितमस्ति. केवलम् एकमेव पदम्, अतः गित्वस्य प्रसङ्गे बहु किमपि चिन्तनम् अनावश्यकम् इति मत्वा उपरितनेषु चित्रेषु गित्वस्य प्रसङ्गे किमपि न लिखितमस्ति इति अत्र सारांशः. समग्रदृष्टिः इति लिखितं खलु, अतः गित्वस्य प्राधान्यमस्ति. नीलं भगिनी भवती पठतु.
अस्मिन् सूत्रे च कित् नित् इत्युक्तं, किन्तु न केवलं कित् नित् अपि तु गित् इत्यपि उक्तम्. तर्हि अत्र एकः प्रश्नः उदेति, अत्र उपरितने पाठे अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः. समग्रदृष्टिः इत्युक्तं, समग्रदृष्टिः इति चेत् गित् प्रत्ययस्य का गतिः? प्रक्रियाचिन्तने अस्य किं स्थानं, किमर्थं न उक्तम्? अत्र यथा भवती उक्तवती, तत्र गीतप्रसङ्गे वयं किमपि न दृष्टं. तत्र उपरि यत् अभ्यासम् अस्माभिः कृतं, तत्र कोऽपि गीतप्रत्ययः तत्र नास्ति. सो अत्र किमर्थं समग्रदृष्टि वदामः चेत् तत्र किमर्थं गीतप्रत्ययस्य विषये तत्र किमपि न लिखितम् इति अत्र अस्मिन् परिच्छेदे लिखितम् अस्ति. अतः गीतप्रत्ययस्य का गतिः, तस्य उपयोगिता का अस्ति व्याकरणशास्त्रे इति अत्र न उक्तम् इति अस्मिन् परिच्छेदे लिखितम्.
उत्तमं. गीतप्रत्ययस्य प्रसङ्गे बहूनि उदाहरणानि न सन्ति, केवलम् एकमेव सूत्रम् अस्ति गित् प्रत्ययम् आधारीकृत्य. केवलं चत्वारि पदानि एव साधितानि. चतुर्षु पदेषु अपि एकमेव पदं गित्वस्य आधारेण निर्मितम् इति अग्रे उच्यते. अत्र प्रश्नस्य उत्तरं किं? पठतु.
उत्तरमस्ति यत् सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति तेषां सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावद् एव आवश्यकम्. गित् नाम्ना कश्चन प्रत्ययः अस्ति, स च एक एव. सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित् घ्नु, तस्य कृते च एकम् एव सूत्रम्, अपि च अनेन घ्नु प्रत्ययेन केवलम् एकः शब्दः निष्पन्नः, यस्य साधनार्थं घ्नु प्रत्ययस्य गित्वम् आवश्यकम्. तदपि किञ्चित् विवादस्पदं नाम अन्येन उपायेन इत् संज्ञक घकारं विना अपि साधयितुं शक्यते. अतः आहत्य अस्माकं यः उपरितन मूलविषयः अस्ति तस्मिन् गित् प्रत्ययस्य किमपि स्थानं नास्ति. अस्तु, अत्र लिखितमस्ति तत्र सम्पूर्णसंस्कृतभाषायाम् एकम् एव गित् प्रत्ययः अस्ति, सः अस्ति घ्नु इति प्रत्ययः. तं निमित्तीकृत्य एकम् एव पदं तत्र व्याकरणशास्त्रे निष्पन्नः भवति, परन्तु तत्र अपि विवादः अस्ति. इत्युक्ते घ्नु न योजयामः चेदपि तत् पदं निर्मितं भवति, अतः अत्र साधयितुं तस्य घ्नु इति कित्वं तत्र इत्संज्ञक गकारस्य विना अपि वयं तत् पदं साधयितुं शक्नुमः. अतः अत्र तत्र किमपि उपरि तत्र यत् अभ्यासं कृतं तत्र किमपि न लिखितमस्ति गित् प्रत्ययस्य विषये इति अत्र मूलविषयः.
उत्तमं भगिनि. संस्कृतभाषायाम् एकः एव गित् प्रत्ययः अस्ति. गित् प्रत्ययम् आधारीकृत्य एकमेव सूत्रमस्ति, ग्लाजिस्थश्च क्स्नुः. ग्लाजिस्थश्च क्स्नुः इति सूत्रम् उपयुज्य चत्वारि पदानि साधयितुं शक्नुमः. ग्लै धातुतः ग्लास्नुः, जी धातुतः जिष्णुः, स्था धातुतः स्थास्नुः, भूधातुतः भूष्णुः इति चत्वारि पदानि तेन सूत्रेण निर्मीयन्ते. तत् सूत्रम् उपयुज्य चत्वारि पदानि साधयितुं शक्नुमः. तस्मिन् सूत्रे अपि गित्वमस्ति वा नो चेत् कित्वमस्ति वा इति प्रश्नः. तेषां चतुर्णां पदानां साधनार्थं कित्वं पर्याप्तं वा नो चेत् गित्वमपि आवश्यकं वा इति अत्र प्रश्नः अस्ति. अस्मिन् परिच्छेदे विवादास्पदम् इति पदं दत्तमस्ति. आस्पदशब्दः नियतलिङ्गशब्दः. मित्रम् इति पदं नियतलिङ्गशब्दः. मित्रम् इति पदं सर्वदा नपुंसकलिङ्गे एव भवति. एषः मम मित्रम् इति वदामः. एषा मम मित्रम् इति अपि साधु एव. इत्युक्ते तत्र विशेषणविशेष्यभावः नास्ति. आस्पदशब्दः अपि तादृशशब्दः एव. आस्पदं नपुंसकलिङ्गशब्दः. नियतलिङ्गत्वम् अस्ति तस्मिन्. अतः विषयः विवादास्पदम् इति एव वक्तव्यमस्ति. विषयः विवादास्पदं, तत्र विशेषणविशेष्यभावः न वक्तव्यः. आस्पदशब्दः नियतलिङ्गशब्दः. स्थानार्थे आस्पदशब्दस्य प्रयोगः भवति. अनुरागास्पदं, सुखास्पदं, गुणास्पदं, ध्यानास्पदं तादृशानि पदानि परिचितानि एव. विषयः विवादास्पदम् इति वक्तव्यमस्ति. भगिन्या सम्यक् उक्तमस्ति. एकः एव शब्दः गित्वम् आधारीकृत्य निर्मितमस्ति, तदपि विवादास्पदं. सः शब्दः अन्येन उपायेन अपि इत्संज्ञकगकारं विना अपि साधयितुं शक्यते इति वैयाकरणानां मतमस्ति. अतः अस्माकं मूलविषये गित्वस्य प्राधान्यं नास्ति. मूलविषयः कः इत्युक्ते अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः खलु. तस्मिन् गित्वस्य प्राधान्यं नास्ति. गित्वस्य स्थानं तदर्थं न दत्तमस्ति. इदानीं वयं ग्लाजिस्थश्च क्स्नुः इति सूत्रम् उपयुज्य तानि चत्वारि पदानि ग्लास्नुः, जिष्णुः, भूष्णुः, स्थाष्णुः इति चत्वारि पदानि कथं साधनीयानि इति एकवारम् अवलोकयाम. शुभदा भगिनी, भवती पठतु अग्रे किं लिखितम्.
अत्र जिज्ञासूनां कृते गित् प्रत्ययस्य कार्यम् उपस्थाप्यते, परन्तु अस्य बोधः नितराम् अनावश्यकः. अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थं
जिज्ञासुः प्रसङ्गे किञ्चित् वदतु.
जिज्ञासुः
ज्ञातुमिच्छति खलु.
हा, ज्ञातुमिच्छति इति जिज्ञासु.
उत्तमं. षष्टिविभक्ति बहुवचनं दत्तमस्ति खलु. जिज्ञासूनां ज्ञा धातुः अस्ति. ज्ञाधातुतः सन् प्रत्ययस्य योजनेन जिज्ञास इति अदन्तधातोः निर्माणं भवति. सन्नन्तधातोः सर्वदा अदन्ताः भवन्ति. इत्युक्ते नूतनधातुः, आतिदेशिकधातुः. निच् प्रत्ययस्य योजनेन निजन्तधातोः निर्माणं भवति. एवमेव अत्रापि ज्ञाधातुतः सन् प्रत्ययस्य योजनेन जिज्ञास इति, तत्रापि द्वित्वं भवति, बहूनि अन्यानि कार्याणि भवन्ति. जिज्ञास इति नूतनधातोः निर्माणं भवति. अत्र लट्टिरूपमस्ति जिज्ञासते. तत्रापि एकं सूत्रम् अस्ति. सन्नन्तरूपाणां प्रसङ्गे एकं सूत्रं स्मर्तव्यं. पूर्ववत् सनः इति सूत्रमस्ति. पूर्ववत् सनः धातुः पूर्वं परस्मैपदी अस्ति चेत् सन्नन्तधातुः अपि साधारणतया परस्मैपदी धातुः एव. नूतनधातुः अपि परस्मैपदी धातुः एव भवति. एवमेव धातुः आत्मनेपदी अस्ति चेत् सन्नन्तधातुः अपि आत्मनेपदी धातुः भवति इति साधारणनियमः पूर्ववत् सनः इति सूत्रेण. किन्तु ज्ञाधातोः प्रसङ्गे किञ्चित् अपवादः अस्ति. ज्ञाधातुः तु परस्मैपदी धातुः एव ज्ञाधातोः लटीरूपं जानाति अस्ति, किन्तु सन् प्रत्ययस्य योजनेन जिज्ञासते आत्मनेपदरूपं सिद्ध्यति. अयम् एकः अपवादः. अत्र धातुः तु जिज्ञास अस्ति. यथा वयं धातोः परं कृत् प्रत्ययान् योजयामः, धातोः परं सार्वधातुककृत् प्रत्ययान् योजयामः, आर्धधातुककृत् प्रत्ययान् योजयामः, एवमेव सन्नन्तधातोः परमपि कृत् प्रत्ययान् योजयामः. जिज्ञासुः इत्यत्र उ इति एकः प्रत्ययः अस्ति. ज्ञातुम् इच्छुः इति वक्तव्यं भवति. ज्ञातुम् इच्छा इति कथनेन जिज्ञासा इति आकारान्तस्त्रीलिङ्गपदं सिद्ध्यति. जिज्ञासा इत्यत्र आ इति प्रत्ययः अस्ति. जिज्ञासा इति आकारान्तस्त्रीलिङ्गपदमस्ति, तत्र आ इति प्रत्ययः अस्ति. सन्नन्तधातोः परम् आ इति कृत् प्रत्ययः अस्ति. एवमेव जिज्ञासुः इत्यत्र उ इति प्रत्ययः अस्ति. धातुः तु जिज्ञास. सन्नन्तधातुं स्वीकृत्य तिङन्तरूपाणि साधयितुं शक्नुमः, कृदन्तरूपाणि अपि साधयितुं शक्नुमः. अत्र उपस्थाप्यते इति लिखितमस्ति, वदतु.
उपस्थाप्यते अत्र उपसर्गपूर्वकः स्था धातुः, तस्य स्थाप्यते, तत्र कर्मणि लट् भवति.
इतोपि
णिजन्त अपि भवति. क्षम्यताम्,
णिच् नास्ति चेत् किं रूपम्?
णिच् नास्ति चेत् स्थातिष्ठ अस्ति,
स्थीयते, अणिजन्तरूपम्, अणिजन्तकर्मणि लट्. किन्तु अत्र स्थाप्यते, अत्र धातुः कः?
धातुः स्था धातुः.
णिजन्तधातुः?
णिजन्तधातुः स्थापी भवति. तत्र एकं सूत्रमस्ति भगिनि, अर्ति रीव्लि क्नुयि क्ष्मा यातां. तत्र यातां इति अस्ति आताम् आकारान्तधातोः कृते यदा णिच् प्रत्ययः परे अस्ति चेत् पुगागमः भवति.
तेन स्थापि इति नूतनधातोः निर्माणं भवति. पुक् आगमः भवति, अपि च णिच् इत्यस्मात् इकारः आगतः, अतः नूतनधातुः स्थापि अस्ति. कर्मणि रूपम् अस्ति इति कारणतः सार्वधातुके यक् सूत्रेण या आयाति, किन्तु तत्र एकम् इतोपि अन्यत् कार्यमस्ति. नेरनिटि इति सूत्रेण स्थापि इत्यत्र यः इकारः अस्ति निचः इकारस्य लोपः भवति. तादृशं कार्यं भवति चेदेव स्थाप्यते इति रूपं सिद्ध्यति, खलु?
आमाम्.
अग्रे वदतु.
परन्तु अस्य बोधः नितराम् अनावश्यकः. अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम् अत्रापि अस्य बोधः, कस्य? गित् प्रत्ययस्य बोधः अत्र नितराम् अनावश्यकः. नितराम् इत्युक्ते अतिशयेन वक्तुं शक्यते, अतिशयेन अनावश्यकः. तत्र कोऽपि कापि आवश्यकता नास्ति इति इत्यर्थे. अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थं किङिति च इति सूत्रं यदा वयं पठामः तस्य सूत्रस्य कृते एतत् प्रत्ययम् अनावश्यकः इति एषः प्रत्ययः अनावश्यकः इति उक्तमस्ति. अत्र बोधः इति अस्ति. बोधः इति बुध् धातुतः घञ् प्रत्ययस्य योजनेन बुध् धातोः अकारः तिष्ठति.
उदुपदधातुः इगन्तम् अङ्गं नास्ति खलु, अतः पुगन्तलघुपदस्य च एव कार्यं करोति.
परन्तु इयत् अस्ति चेत् अत उपधायः
कार्यम् उपधायां ह्रस्वकारः अस्ति चेत् अत्र अत उपधायाः कार्यं नास्ति, अचोयणिति कार्यमपि नास्ति.
अतः पुगन्तलघुपदस्य च इत्यनेन बुध् इत्यस्य उकारस्य गुणः भूत्वा बोध इति भवति. बोधः. नितराम् इति तु अव्ययमस्ति इति मन्ये. अनावश्यकः न आवश्यकः अनावश्यकः, तत्र नयतत्पुरुष समासः. अस्माकम् इति अस्मत् शब्दस्य प्रथमा षष्ठीविभक्ति बहुवचनम् उपर्युक्त. अत्रापि यदा भगिनी उक्तवती तत्र यण् कार्य उपरि युक्तः
उपरि उक्त
उपरि उक्त हा उपरि उक्त तत्र यण् सन्धिः अस्ति प्रक्रियायाः उपर्युक्तप्रक्रियायाः नाम उपरि यत् या प्रक्रिया निर्दिष्टा अस्ति तत् प्रक्रिया तस्याः दृष्ट्या समग्रदृष्ट्यर्थं समग्रा दृष्टि इति समग्रा दृष्टि
कर्मधारयः
तस्य अर्थम् इति चतुर्थी विभक्त्यर्थे अर्थम् इति दृष्ट्याः कृते इति अपि वक्तुं शक्यते
कर्मधारयसमासगर्भ चतुर्थी तत्पुरुषसमासः अग्रिमभागे परिच्छेदः तु बृहान् अस्ति तस्मिन् परिच्छेदे बहवः विषयाः उक्ताः सन्ति अतः भागशः इत्युक्ते एकमेकं वाक्यं स्वीकृत्य एकवारम् अवगन्तुं प्रयत्नं कुर्मः भवती इच्छति चेत् सम्पूर्णतया पठतु समस्या नास्ति किन्तु किञ्चित् किञ्चित् एव स्वीकृत्य वयं चर्चां कुर्मः पठतु
एकं सूत्रमस्ति ग्लाजिस्थश्च स्नुः इति अत्र मूलप्रत्ययः अस्ति स्नुः तदा खरि च इत्यनेन चर्त्वं कृत्वा स्नुः भवति अनेन ग्ला जि स्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः स्नु प्रत्ययः विधीयते अत्र दत्तमस्ति ग्लाजिस्थश्च स्नुः इति एकं सूत्रम् अत्र एतस्मिन् एव सूत्रे स्नु प्रत्ययस्य उल्लेखः अस्ति अन्यत्र कुत्रापि नास्ति अत्र स्नु इति प्रत्ययः अस्ति परन्तु सकारः परे अस्ति इति कृत्वा खरि च इत्यनेन खरि परे वर्गीयतृतीयवर्णस्य चर्त्वं भवति अतः गकारस्य ककारः भवति क्स्नु इति भवति अनेन
ग्लाजिस्थश्चक्स्नुः इत्यस्मिन् सूत्रे यद्यपि गकारः न दृश्यते तथापि तत्र गकारः अस्ति क्निति च सूत्रे यथा सन्धिकार्यम् अभवत् तथा एव अत्रापि सन्धिकार्यं कृत्वा लिखितम् अस्ति अतः क्स्नुः इति रूपं दृश्यते यद्यपि क्स्नुः इति रूपं दृश्यते तथापि तत्र प्रत्ययः तु घ्नु इत्युक्ते प्रत्यये गित्वम् अस्ति घ्नु इति प्रत्ययस्य प्रसङ्गे उक्तवती केवलं घ्नु इति प्रत्ययं स्वीकृत्य प्रत्ययस्य स्वभावं वर्णयतु
घ्नु इति प्रत्ययः प्रथमं तु तिङ् नास्ति षित् अपि नास्ति अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन यः सार्वधातुकसंज्ञा भवति तत्तु अत्र नास्ति अतः आर्धधातुकं शेषः इत्यनेन तस्य आर्धधातुकसंज्ञा भवति आर्धधातुकः अस्ति अपि च तिङ् नास्ति अतः कृदतिङ् इत्यनेन तस्य कृत् प्रत्ययः अपि भवति अतः कृत् सार्वधातुकप्रत्ययः कृत् आर्धधातुकः अस्ति अपि च गकारस्य इत्संज्ञा भवति इति कृत्वा गित् कृत् आर्धधातुकप्रत्ययः भवति
इत्युक्ते घ्नु प्रत्ययः तिङ्क्षित् नास्ति इत्यतः आर्धधातुकं शेषः सूत्रेण आर्धधातुकसंज्ञकः अपि च अतिङ् प्रत्ययः अस्ति इति कारणतः कृत् प्रत्ययः कृदतिङ् सूत्रेण प्रत्यये गित्वम् अस्ति इति कारणतः गित् प्रत्ययः गित् आर्धधातुक कृत् प्रत्ययः अयं प्रत्ययः धातुतः आर्धधातुक कृत् प्रत्ययस्य योजनेन किं रूपं सिद्ध्यति
तत्र गित् अस्ति इति कृत्वा
धातुतः कृत् प्रत्ययस्य योजनेन किं सिद्ध्यति
कृदन्तं रूपं यत् प्रातिपदिकं भवति कृत् तद्धितसमासाश्च इत्यनेन तस्य प्रातिपदिकसंज्ञा भवति
तदेव श्रोतुमिच्छामि धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति पश्चादेव सुबन्तप्रक्रियाम् उपयुज्य सुबन्तरूपं साधयामः खलु आहत्य अत्र घ्नु प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति अग्रे पठतु
अनेन ग्लाजिस्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः घ्नु प्रत्ययः विधीयते अत्र ये धातवः भू इति तु अस्मिन् उक्तं नास्ति परन्तु अनुवृत्तिरूपेण आयाति इति मन्ये
तस्मात् पूर्वम् एकं सूत्रमस्ति भुवश्च भुवश्च इति सूत्रेण भविष्णुः इति पदं साधितम् अस्ति. भू इति धातुतः निर्मितं पदं तत्. भुवश्च इति सूत्रं पूर्वसूत्रमस्ति इति कारणतः पूर्वसूत्रात् भू इति पदं ग्लाजिस्थश्चक्ष्णुः सूत्रे भू इति पदम् अनुवृत्तिरूपेण पूर्वसूत्रात् आगतं. वदतु.
अतः एतेभ्यः चतुर्भ्यः धातुभ्यः क्ष्णु इति प्रत्ययः विधीयते. तत्र एकमेकं धातुं स्वीकृत्य वयं वक्तुं शक्नुमः ग्ला इति धातुः तस्य घ्नु इति प्रत्ययः गित् गकारस्य इत्संज्ञा भूत्वा लशक्वतद्धिते इत्यनेन अपि च तस्य लोपः इत्यनेन तस्य लोपः स्नु इति एव अवशिष्यते. ग्ला योगः स्नु. अतः अत्र गित् अस्ति इति कृत्वा किङिते च इत्यनेन तस्य तत्र गुणनिषेधः.
भगिनि, ग्ला इति धातुरूपी अङ्गम् अस्ति, आकारान्तम् अङ्गम् अस्ति. अङ्गम् इगन्तं नास्ति चेत् तत्र गुणस्य प्रसङ्गः एव नास्ति.
नास्ति, हा.
इगन्तम् अङ्गम् अथवा लघुपदम् अङ्गम् अस्ति चेदेव गुणकार्यं भवति वा न वा इति चिन्तनं भवति. किन्तु अत्र धातुरूपी अङ्गम् अस्ति, आकारान्तम् अङ्गम् अस्ति, तत्र गुणस्य प्रसङ्गः नास्ति. औपदेशिक अवस्थायां धातुः ग्ला नास्ति. ग्लै, वदतु.
ग्लै इति धातुः अस्ति. ओके, परन्तु सूत्रे तु ग्ला इति दत्तमस्ति. तत्
सूत्रे दत्तमस्ति, किन्तु औपदेशिकावस्थायां धातोः रूपं ग्लै. एषा प्रक्रिया आर्धधातुकप्रक्रिया अस्ति. ग्लै इति कथनेन धातुः एजन्तधातुः, ऐकारः एच् प्रत्याहारस्थवर्णः, अपि च स्नु प्रत्ययः कीदृशः आर्धधातुकप्रत्ययः इत्युक्ते अशित् प्रत्ययः. प्रक्रिया आर्धधातुकप्रक्रियः, धातुः एजन्तधातुः. इदानीम् आदेश उपदेशेषिति वदतु.
हा, इदानीम् आदेश उपदेशेषिति इति सूत्रेण तत्र अशित् प्रत्ययः परे अस्ति स्नु इति कृत्वा, अपि च धातुः एजन्त अस्ति इति कृत्वा धातोः एजन्त ऐकारस्य स्थाने आकारः भवति.
आदेच उपदेशिषिति इति सूत्रेण एजन्तधातवः अशित् प्रत्यये परे आकारान्ताः भवन्ति. ग्लै धातुतः ग्ला, ध्यै धातुतः ध्या, गै धातुतः गा, म्लै धातुतः म्ला. एवम् आर्धधातुकप्रक्रियायाम् इत्युक्ते अशित् प्रत्ययः इति कथनेन प्रत्ययः शित् नास्ति. शित् नास्ति चेत् सार्वधातुकप्रक्रिया नास्ति. आर्धधातुकप्रक्रियायाम् आर्धधातुकप्रत्यये परे एव आदेच उपदेशशिति इति सूत्रं कार्यं करोति. एजन्तधातूनां प्रसङ्गे एजन्तधातवः आकारान्ताः भवन्ति अशित् प्रत्यये परे तेन सूत्रेण. वदतु.
अतः ग्ला इति भवति. ग्ला योगः स्नु, तत्र किमपि अन्यत् कार्यं नास्ति. ग्लास्नु इति भवति. अतः ग्लास्नु इति अधुना कृदन्त अस्ति, प्रातिपदिकमपि अस्ति. कृत् तत्तितसमासाश्च इत्यनेन तस्य प्रातिपदिकसंज्ञा. अतः प्रथमा विभक्तौ एकवचने ग्लास्नुः इति भवति. गुरुवत् व्यवहरति. एवमेव जी योगः स्नु, जिष्णुः.
धन्यवादाः सुन्दरमहोदय. भवान् वदतु, जिष्णुः इति रूपं साधनीयं. जिष्णुः प्रसङ्गे किं चिन्तनमस्ति?
क्षम्यतां भगिनी, किमर्थम् अत्र इदानीम् आदेशोपदेशो अशीति इत्यस्य प्रसङ्गः?
धातोः रूपं ग्लै अस्ति, ग्ला धातुः. तस्य रूपं ग्ला नास्ति, आकारान्तधातुः नास्ति, एजन्तधातुः. ग्लै धातुः एजन्तधातुः. एषा प्रक्रिया आर्धधातुकप्रक्रिया. अत्र घ्नु प्रत्ययः आर्धधातुक कृत् प्रत्ययः. आर्धधातुकप्रक्रिया अस्ति इति कारणतः आर्धधातुकप्रक्रिया इति कथनेन अशित् प्रत्यये परे तत् सूत्रम् एजन्तधातूनां प्रसङ्गे कार्यं करोति. अतः एजन्तधातवः आकारान्ताः भवन्ति अशित् प्रत्यये परे तेन सूत्रेण. तादृशी स्थितिः अत्र अस्ति.
धन्यवादः.
जिष्णुः प्रसङ्गे वदतु.
जिष्णुः प्रसङ्गे जी जी योगे जी धातोः योगे अश्नु स्नु इति प्रत्ययः जिष्णुः इति भवति. परन्तु तत्र गुणनिषेधः आवश्यकः इति चतुर्षु जी धातु च भू धातु च गुणनिषेधः आवश्यकं भवति. तत्र स्नु धातुः तत्र
सम्पूर्णतया प्रक्रियां वदतु यथा भगिनी उक्तवती.
जी धातुः इगन्तधातुः अस्ति इति कारणेन तत्र गुणस्य प्रसक्तिः अस्ति. परन्तु अत्र स्नु इति धातुः उकारः स्नु इति धातोः उकारः इत्संज्ञा सकारः इत्संज्ञा कोऽपि इत्संज्ञा नास्ति.
मूलप्रत्ययः तु घ्नु
घ्नु ओके मूलप्रत्ययः घ्नु अस्ति. तत्र गकारः इत्संज्ञा भूत्वा लोपः भवति. लसकोदपिते इति सूत्रेण गकारः इत्संज्ञा भूत्वा लोपः भवति. स्नु इत्येव अवशिष्यते. स्नु इति अवशिष्यते. अधुना कित् एतत् प्रत्ययः कित् प्रत्ययः अस्ति. गकार गित् प्रत्ययः अस्ति. गकारः इत्संज्ञा भूत्वा लोपः भवति. इत्संज्ञा भवति इति कारणेन एतत् प्रत्ययः गित् प्रत्ययः भवति इति कारणेन गितिच इति सूत्रेण गुणनिषेधः भवति. गुणनिषेधः भवति इति कारणेन तत्र जी इति धातोः धातुः इगन्त धातुः अपि च तत्र गुणस्य प्रसक्तिः अपि अस्ति. परन्तु प्रत्ययः गित् प्रत्ययः इति कारणेन गितिच इति सूत्रेण गुणनिषेधः भवति. अधुना जी योगे स्नु इति भवति. जी योगे स्नु अत्र स्नु इत्यस्य सकारः सः दन्त्यसकारः मूर्धन्यषकारः रूपेण परिवर्तनं भूत्वा श्नु भवति. जी योगे श्नु जिष्णु इति भवति. जिष्णुः इति भवति.
साधु महोदय. जी इति इगन्तमङ्गमस्ति. घ्नु प्रत्ययस्य गकारः इति संज्ञकः अस्ति. लशक्वतधिति इत्यनेन अपगच्छति. गुणकार्यस्य प्रसक्तिः अस्ति. किन्तु प्रत्ययस्य गित्वम् आधारीकृत्य अत्र गुणनिषेधः भवति. अत्र गुणनिषेधः आवश्यकः. अत्र गुणः भवति चेत् ज्येष्णुः इति रूपं सिद्ध्यति. किन्तु तदनिष्टं रूपं. लोके तु केवलं जिष्णुः इति रूपमेव अस्ति. जी धातुतः घ्नु प्रत्ययस्य योजनेन जिष्णुः जयति इति जिष्णुः कर्तरर्धकप्रत्ययः. अर्जुनस्य नामापि अस्ति. अर्जुनस्य नाम विजयः अस्ति खलु. एवमेव जिष्णुः इति कथनेन अर्जुनः अपि भवितुम् अर्हति. किन्तु अत्र गुणकार्यस्य निषेधः आवश्यकः अस्ति. महोदय भवान् वदतु, गुणकार्यस्य निषेधः कित्वम् अस्ति चेदपि भवति, गित्वम् अस्ति चेदपि भवति. किन्तु किमर्थम् अत्र गित्वमेव स्थापितमस्ति सूत्रे? ग्लाजिस्थश्चक्ष्णुः इत्यस्मिन् सूत्रे गित्वम् अस्ति इति पठितम्. गुणकार्यस्य निषेधं कारयितुं निषेधकार्यार्थं कित्वम् अस्ति चेदपि पर्याप्तं खलु? गित्वमेव आवश्यकम् इति किमर्थम् अत्र वदतु.
अत्र ग्लादिस्थश्च इति स्नुः इति सूत्रेण अत्र गकारः एव अस्ति किल. ग्लादिस्थश्च इति सूत्रेण गकारः अस्ति. स्नुः इति सूत्रे गकारः एव
अस्ति. कित्वम् अस्ति चेदपि तत्र सारल्यमस्ति खलु. कित्वस्य प्रसङ्गे वयं जानीमः, बहु किमपि वयं दृष्टवन्तः कित्वस्य प्रसङ्गे. अत्र कित्वम् अस्ति चेदपि गुणकार्यस्य निषेधः भवति. किमर्थं कित्वमेव आवश्यकम् इत्युक्ते सूत्रस्य प्रसङ्गे इतोपि किञ्चित् पठनीयम् अस्ति. अत्र गुणकार्यस्य निषेधः कित्वमस्ति चेदपि भवति, कित्वमस्ति चेदपि भवति, कित्वमेव आवश्यकम् इति तादृशी स्थितिः नास्ति. कित्वस्य कारणेन अपि गुणनिषेधः भवितुं शक्नोति जिष्णुः इत्यस्मिन् पदे खलु. किन्तु सूत्रे गित्वमेव दत्तमस्ति. किमर्थम् इति अवगन्तुम् अग्रे पठनीयम्. जिष्णुः इत्यत्र मूर्धन्यषकारः आगतः. किमर्थं मूर्धन्यषकारः आगतः इति प्रश्ने सति आदेशप्रत्ययोः इति एकं सूत्रम् अस्ति. अत्र जी इति इगन्तम अङ्गमस्ति. जी इत्यत्र इकारः अस्ति. इकारः इण् प्रत्याहारस्थवर्णः, अपि च प्रत्ययस्य अवयवरूपेण अत्र दन्त्यसकारः अस्ति, तादृशी स्थितिः अस्ति चेत् आदेशप्रत्ययोः इत्यनेन सूत्रेण अत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. पश्यतु, ग्लास्नुः इत्यत्र मूर्धन्यषकारः नास्ति. किमर्थम्
किमर्थं चेत् तत्र
ग्ला इत्यत्र आकारः अस्ति, आकारः इन् प्रत्याहारस्थवर्णः नास्ति. आदेशप्रत्ययोः इत्यस्मिन् सूत्रे यानि यानि निमित्तानि सन्ति तानि निमित्तानि ग्लास्नु इत्यस्मिन् प्रसङ्गे पूरितानि न सन्ति, अतः तत्र षत्वं न भवति. आदेशप्रत्ययोः इत्यस्मिन् सूत्रे इन्कोः इति सूत्रस्य सम्पूर्णानुवृत्तिः अस्ति. इन्कोः इति एकम् अधिकारसूत्रमस्ति. आकारः इन् प्रत्याहारस्थवर्णः नास्ति, अतः ग्लास्नुः इत्यत्र षत्वं नास्ति. एवमेव स्थास्नुः इत्यत्रापि षत्वं नास्ति. भवान् वदतु, स्थास्नुः
स्थास्नुः अत्रापि स्था इति धातोः अन्तिमवर्णः इगन्तवर्णः नास्ति इति कारणेन इन्कोः इति ओके इन् प्रत्ययस्य अवयवः नास्ति इति कारणेन तत्रापि सकारस्य दन्त्यसकारस्य मूर्धन्यषकारः न भवति. आदेशप्रत्ययोः इति सूत्रं तत्रापि कार्यं न कर्तुं शक्यते.
अत्र गुणनिषेधकार्यस्य प्रसक्तिः अस्ति वा?
गुणनिषेध कार्यस्य प्रसक्तिः ओके स्थायोगे क्ष्णु तत्रापि स्थाधातुः एव गुणस्य प्रसक्तिः नास्ति.
अत्र आकारान्तम् अङ्गम् अस्ति.
आकारान्तम् अङ्गम् अस्ति
इत्युक्ते इगन्तम् अङ्गं नास्ति. इगन्तम् अङ्गं नास्ति इति कारणतः अत्र गुणकार्यस्य प्रसङ्गः एव नास्ति. केवलम् अत्र वर्णमेलनं, ग्लास्नुः इत्यत्र यादृशं कार्यं भवति तादृशं कार्यमेव अत्रापि भवति. केवलं वर्णमेलनं, स्थायोगः स्नु इति भवति, तत्र वर्णमेलनेन स्थास्नुः. अग्रे भूष्णुः वदतु.
भू इति धातोः इगन्तम् अङ्गम् अस्ति, परन्तु तत्रापि स्नु इति कारणेन स्नु प्रत्ययः गित् प्रत्ययः इति गकारस्य लशक् वदतिते इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति इति कारणेन गित् प्रत्ययः एवं गिन्ति च इति सूत्रेण तत्रापि गुणनिषेधः भवति तथा ओके भूयोगे स्नु एव भवति. भूयोगे स्नु एव भवति तत्रापि इगन्तधातु भूधातु इगन्तम् अङ्गम् अस्ति इति कारणेन तत्रापि सकार आदेशप्रत्ययोः इति सूत्रस्य निमित्तानि पूरितानि सन्ति इति कारणेन भूयोगे स्नु स्नुः इति दन्त्यसकारः मूर्धन्यषकारः भवति रूपेण परिवर्तनं भवति. भूयोगे श्नुः भूष्णुः इति अन्तिमं रूपं सिद्ध्यति.
बहु सम्यक्. ग्लाष्णुः स्थाष्णुः द्वयोः प्रसङ्गे केवलं वर्णमेलनमेव अस्ति, किन्तु जिष्णुः भूष्णुः इत्यत्र गुणकार्यस्य निषेधः आवश्यकः. गुणकार्यस्य निषेधः भवति चेदेव भूष्णुः जिष्णुः रूपं सिद्ध्यति. नो चेत् किं भवति, गुणकार्यं भवति चेत् भोष्णुः भवति, जेष्णुः भवति, तादृशं रूपं लोके नास्ति. भूष्णुः एव अस्ति, जिष्णुः एव अस्ति, तत्र गुणकार्यस्य निषेधः अवश्यं करणीयः. गुणकार्यस्य निषेधः कित्वमस्ति चेदपि भवति, गित्वमेव आवश्यकम् इति नास्ति. तत्र गित्वस्य आवश्यकता नास्ति वा? नास्ति चेत् सूत्रे गित्वं किमर्थं स्थापितमस्ति इति चिन्तनीयमस्ति. अग्रे तदेव लिखितमस्ति. नरेश् महोदय, भवान् पठतु.
एषु चतुर्षु जी धातौ च भूधातौ च गुणनिषेधः आवश्यकः. ग्लाधातौ च स्थाधातौ च किमपि कार्यं नावश्यकं, केवलं वर्णमेलनम्. अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययः क्ष्णु इत्येव भवति चेत् निति च इति सूत्रद्वारा गुणनिषेधः सेत्स्यति. अतः किमर्थं न क्ष्णु इत्येव भवतु? क्ष्णु इत्यस्य का आवश्यकता? क्ष्णु प्रत्ययं त्यजाम, क्ष्णु इत्येव भवतु, अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, क्ष्णु मास्तु, किन्तु
तावत् वदतु महोदय, अग्रे अन्यविषयः अस्ति.
अत्र दत्तमस्ति जीधातुविषये भूधातुविषये. तत्र इगन्तं धातु अस्ति चेत् गुणनिषेध गुण भवति, परन्तु अत्र गुणनिषेधः दत्तमस्ति. अन्यधातु ग्ला अस्ति, स्था अस्ति, तत्र तु इगन्तं नास्ति. अतः किमपि गुणनिषेधकम् आवश्यकं नास्ति. तत्र केवलं वर्णमेलनम् अस्ति. तत् अस्ति जीधातु भूधातु भिन्नः अस्ति, ग्लाधातु स्थाधातु भिन्नम् अस्ति. अतः अत्र चिन्तनं करणीयं चिन्तयितुं शक्नुमः. अत्र प्रत्ययक्ष्णु इत्येव भवति निति च, यदि तत्र क्ष्णु अस्ति तत्रापि गुणनिषेध भवितुम् अर्हति, परन्तु क्ष्णु किमर्थम् अस्ति तत् चिन्तनम् अस्ति अत्र.
उत्तमं. घ्नु इति वदनस्य आवश्यकता अस्ति वा? गित्वस्य अवसरः अस्ति वा? घ्नु इति कथनेन तत्र गित्वस्य प्रयोजनम् अस्ति वा इति द्रष्टव्यम्. जीधातोः प्रसङ्गे भूधातोः प्रसङ्गे गुणनिषेधः आवश्यकः, किन्तु ग्लाधातोः प्रसङ्गे स्थाधातोः प्रसङ्गे गित्वस्य अवसरः अस्ति वा इति अत्र द्रष्टव्यम्. ग्लाधातोः प्रसङ्गे समस्या नास्ति, किन्तु स्थाधातोः प्रसङ्गे एकम् अन्यत् सूत्रं तत्र आगत्य समस्यां कारयति. स्थाधातोः प्रसङ्गे समस्या अस्ति. आकारान्तधातुद्वयम् इदं जीधातुः भूधातुः इगन्तधातुद्वयं, जीधातुः भूधातुः द्वयोः प्रसङ्गे गुणनिषेधस्य आवश्यकता अस्ति. तत्र कित्वमस्ति चेदपि कार्यं भवितुं शक्नोति. अत्र सेत्स्यति इति पदमस्ति, तत् किम्?
सेत्स्यति तत् लिट् लकारे धातु अस्ति. स्यति
तदेव महोदय, लृट् लकाररूपम् अस्ति, सिद्धधातुः अस्ति. सिद्धधातुतः लृट् लकार प्रथमपुरुष एकवचनरूपं सेत्स्यति, लट् लकाररूपं सिद्ध्यति. धातुः सिद्ध अस्ति. सिद्ध्यति इति वदामि चेत् कस्मिन् गणे अस्ति?
तत् दिवादिगणे अस्ति.
सिद्ध्यति इति दिवादिगणे अस्ति, अत्र लृट् लकाररूपं स्थापितमस्ति. अग्रे पठतु, समस्या का अत्र?
क्ष्णु प्रत्ययं त्यजाम, क्ष्णु इत्येव भवतु, अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते घुमास्था गा पा जहातिसां हलि. अनेन घु मा स्था गा पा हा ओहा सा शो येषां धातूनां अकारस्य स्थाने ईकारादेशो भवति हलादि. कित् नित् आर्धधातुकप्रत्यये परे. तर्हि प्रत्ययः क्ष्णु अस्ति चेत् घुमास्था गापा जहा तिसाम् हलि इत्यनेन स्था योगक्ष्णु स्थि योगस्नु स्थिष्णु इति अनिष्टरूपं रूपं सेत्स्यति. तस्य निवारणार्थं मूलप्रत्ययः ग्स्नु इति कृतम् अस्ति. अत्र प्रश्नः तु अस्ति तत् वयं पठितवन्तः तत्र स्नु आवश्यकं नास्ति. स्नु केवलं कार्यं कर्तुं शक्नोति, परन्तु स्नु किमर्थम् अस्ति अत्र दत्तम् अस्ति. एकः सूत्रम् अस्ति घुमास्था गापा जः तिसां हलि. अत्र तत् घुमास्था गापाः सा तत् आकारस्य स्थाने ईकारादेशो भवति. ईकारादेश भवति चेत् तत्र स्था योगस्नु स्थि योगस्नु भवति स्थिष्णु. तत्तु अनिष्टरूपम् अस्ति. अतः तत्र स्नु दत्तमस्ति यतः अन्यथा स्थास्थि भवति.
उत्तमं महोदय. अत्र घू इति कथनेन घूसंज्ञकधातवः षट् सन्ति. घू इति एका संज्ञा अस्ति, घूसंज्ञा. घीसंज्ञापि अस्ति, संज्ञाप्रकरणे सूत्राणि सन्ति. घू इति एका संज्ञा. घूसंज्ञकधातवः षट् सन्ति, तेषां प्रसङ्गे अपि इदं सूत्रं कार्यं करोति. मा धातुं जानीमः, मा धातोः कर्मणि लट् रूपं मीयते. स्था धातोः कर्मणि लट् किम् अस्ति?
स्थीयते.
स्थीयते, तत्र धातुः स्था अस्ति, किमर्थं स्थीयते भवति इति प्रश्नः. तत्रापि इदं सूत्रमेव कार्यं करोति. कर्मणि लट् किम् अस्ति? गा धातोः कर्मणि लट् रूपं
गीयते.
उत्तमं. पा धातोः रूपं
पीयते.
हा धातोः रूपं
हीयते.
उत्तमम्. एवम् अनेन सूत्रेण कार्यं भवति तेषु रूपेषु. अस्मिन् सूत्रे केचन धातवः उक्ताः, घूमास्था गापा जहाति साम् इति षष्टिबहुवचनरूपमस्ति. केवलं सूत्रे हलि इति निमित्तं लिखितमस्ति, किन्तु अत्र निमित्तं किम् इति स्पष्टतया स्मर्तव्यम्. हलादिकित् नित् आर्धधातुकप्रत्यये परे एव इदं कार्यं भवति. कर्मणि लट् प्रसङ्गे यक् प्रत्ययः अस्ति खलु, अनुबन्धलोपानन्तरं यक् प्रत्ययः कीदृशः? हलादिः कित् आर्धधातुकप्रत्ययः. तिंशित् नास्ति इत्यतः आर्धधातुकप्रत्ययः. हलादिकित् नित् आर्धधातुकप्रत्यये परे एतादृशधातूनाम् आकारस्य ईकारादेशः भवति इति सूत्रेण उच्यते. स्थाश्नुः इति प्रसङ्गे किं भवति इति पश्यामश्चेत्, स्था धातुः आकारान्तधातुः, अपि च सूत्रे स्था धातोः उल्लेखः अस्ति. घूमास्था इति उक्तमस्ति, इत्युक्ते सूत्रे स्था धातोः उल्लेखः अस्ति. इत्युक्ते स्था धातोः प्रसङ्गे घूमास्था गापा जहाति सांहलि सूत्रमपि तत्र आगत्य कार्यं कर्तुम् उद्युक्तं भवति. ग्लाजिस्थश्चक्ष्णुः सूत्रमपि तत्र आगत्य कार्यं कर्तुम् उद्युक्तं भवति. किमर्थं चेत् ग्लाजिस्थश्चक्ष्णुः सूत्रे स्था धातोः उल्लेखः तस्मिन् सूत्रे अपि अस्ति. चक्ष्णुप्रत्ययः आर्धधातुकप्रत्ययः, हलादिः. ग्लाजिस्थस्य क्ष्णुः इत्यस्मिन् सूत्रे कित्वम् अस्ति चेत् तत्र समस्या जायते. घूमास्था गापा जहाति साम् हलि इत्यस्मिन् सूत्रे हलादि कित् नित् प्रत्यये परे इति एव लिखितमस्ति, न तु हलादि गित् प्रत्यये परे. इत्युक्ते घूमास्था गापा जहाति साम् हलि सूत्रे हलादि कित् नित् प्रत्ययः अस्ति चेदेव ईकारादेशः. हलादि गित् प्रत्ययः अस्ति चेत् ईकारादेशः न भवति. स्था धातोः प्रसङ्गे घुमास्था गापा जहाति साम हलि सूत्रं कार्यं करोति चेत् अनिष्टरूपापत्तिः भवति। स्था इत्यस्य रूपं स्थी भवति चेत् स्थीष्णुः इति रूपं सिद्ध्यति। तादृशं रूपं लोके नास्ति, स्थाष्णुः इति एव अस्ति इति कृत्वा घुमास्था गापा जहाति साम हलिसूत्रस्य कार्यं निवारयितुं मूलसूत्रे ग्लाजिस्थश्चक्ष्णुः सूत्रे गित्वम् आवश्यकम्। अपि च गित्वे गुणनिषेधकक्षमता अपि आवश्यकी, गित्वे गुणनिषेधः अपि आवश्यकः अस्ति। अतः क्निति च सूत्रे गित्वमपि योजितमस्ति, गित्वस्य प्रश्लेषः तदर्थं कृतमस्ति। गित्वस्य योजनं क्निति च सूत्रे तदर्थं कृतमस्ति। केवलं स्थाधातोः प्रसङ्गे एव एतादृशी समस्या जायते।
भगिनी अत्र एकं प्रश्नः अस्ति, घूमास्थापः इति सूत्रे तत्र आर्धधातुके इति पदस्य तत्र उल्लेखः अस्ति, इत्युक्ते अनुवृत्ति अस्ति, किमपि अत्र विशिष्टम् अस्ति वा? कित्नेत् पर्याप्तम्? अहं चिन्तयामि कित्नेत् वास् एनफ् बट् वै आर्धधातुके इति अत्र लिखितम्? इत्युक्ते अत्र सार्वधातुक अपि प्रत्ययः अस्ति चेत् एतत् सूत्रं कार्यं न करोति वा?
न, अत्र आर्धधातुकप्रत्यये परे इति आवश्यकम्।
कित् प्रत्ययविषये एव कार्यं कर्तुं शक्यते,
किन्तु सूत्रे हलादि कित्नित् आर्धधातुकप्रत्यये परे कार्यं करोति इदं सूत्रम्। आकारस्य इकारादेशः भवति, किन्तु घ्नु प्रत्ययस्य प्रसङ्गे तत्र गित्वमस्ति चेदेव, तस्मिन् सूत्रे गित्वम् अस्ति चेदेव अस्य सूत्रस्य निषेधः भवति खलु।
स्था इति विषये तत्र गित्वम् आवश्यकम्, अन्यथा तत्र असाधुपदं निष्पद्यते, अतः तस्य विषये तु सम्यक् अस्ति, परन्तु अहं चिन्तयामि अत्र कित्नित् इति निमित्तम् अस्ति, अपि च आर्धधातुके अपि तत्र लिखितम् अस्ति, सो अन्यस्मिन् धातुविषये तत्र किं कुर्मः? तत्र सार्वधातुक अपित् प्रत्ययः अस्ति चेत् कार्यं करोति वा न करोति इति द्रष्टव्यम्।
अन्यानि रूपाणि द्रष्टव्यानि, सूत्रस्य सम्पूर्ण अवगमनम् आवश्यकं खलु।
आम् आम् तथैव,
अन्यानि रूपाणि अपि द्रष्टव्यानि, इत्युक्ते इदं सूत्रम् उपयुज्य अन्यानि कानि कानि पदानि साधयितुं शक्नुमः इति सम्पूर्णदृष्टेः अवसरः अस्ति खलु।
आम् सत्यम्, एक्चुलि ऐ हेड् नाट् रिटन् दिस् आर्धधातुके, यथा भवती उक्तवती, देन् ऐ चेक्ड् ऐ सेड् आर्धधातुके किमर्थं, देट् इस् वै ऐ गाट् दिस् क्वश्चन्।
भवती वदतु अत्र इतोपि किं लिखितमस्ति स्थीष्णुः इति प्रसङ्गे, अग्रे पठित्वा वदतु वदतु शुभदा भगिनी।
प्रत्ययस्य स्वरूपमेव ते वक्तुम् इच्छन्ति, अतः आर्धधातुकः अपि तत्र निर्दिष्टमस्ति, अथवा तत्र आवश्यकता तु नास्ति यथा भगिनी उक्तवती, परन्तु कीदृशी प्रत्ययः इति they just want to mention what kind of characteristics of the pratyaya should be there, so they just mentioned, just enlisted, that's it, just my thought.
Rupam sthishnuhu asti chet tatrapi inkoha varnah asti iti karanatah shatvam bhavati eva, kintu sthishnuhu idrupam loke nasti, kevalam sthashnu इति रूपमेव लोके अस्ति। स्थाष्णु इति रूपसिद्धेः प्रसङ्गे एव इदम् एकमेव पदं गित्वम् आधारीकृत्य गित्वस्य आधारेण निर्मितम् अस्ति। गित्वं नास्ति चेदपि अन्यानि पदानि साधयितुं शक्नुमः। ग्लाष्णुः इत्यत्र कित्वस्य गित्वस्य प्राधान्यं नास्ति, जिष्णुः भूष्णुः इत्यत्र कित्वमस्ति चेदपि पर्याप्तं, किन्तु स्थाष्णुः इत्यत्र गित्वस्य आवश्यकता अस्ति। स्थाष्णुः इति रूपसिद्धौ गित्वस्य प्रसङ्गः अस्ति, इत्युक्ते ग्लाजिस्थश्चक्ष्णुः सूत्रे गित्वमस्ति चेदेव स्थाष्णुः इति रूपं साधयितुं शक्नुमः, नो चेत् घुमास्तागापजहाति सांहली सूत्रम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति। तत् सूत्रं कार्यं करोति चेत् अनिष्टरूपं सिद्ध्यति इति समस्या। केवलं स्थाष्णुः रूपसिद्धेः प्रसङ्गे एव तत्र गित्वम् आवश्यकम्। इदानीं भगिनी भवती वदतु, नीलं भगिनी इतोपि स्पष्टतया वदतु.
यत् वयम् उपरि दृष्टं तत्र व्याकरणशास्त्रे एकम् एव पदः अस्ति यस्य कृते गुस्नु इति प्रत्ययस्य आवश्यकता, सः अस्ति स्थाश्नु. इत्युक्ते तत्र यदि वयं कित्वं योजयामः चेत् तत्र गुमास्थापा इति सूत्रस्य प्रसक्तिः भवति. तेन किं भवति, आकारस्य स्थाने दीर्घ इकार आदेशः भवति. सो तत्र स्थीष्णु इति रूपम् अनिष्टरूपं. सो अतः तत्र यः पदं यस्य कृते घुस्नु इति प्रत्ययस्य आवश्यकता, सः अस्ति स्थाश्नु इति. अन्यथा तत्र अनिष्टरूपं सिध्यति.
तस्य निवारणार्थम् इत्यस्मात् आरभ्य पठतु.
तस्य निवारणार्थं मूलप्रत्ययः घुस्नु इति कृतम् अस्ति. अपि च यदा घुस्नु इति प्रत्ययः जातः तस्य गित्वे गुणनिषेध क्षमता अपि आवश्यकी, जिष्णु भुष्णु इति द्वयोः साधनार्थम्. एतदर्थम् एव किनिति च इति सूत्रे घकारस्य प्रश्लेषः कृतः. नो चेत् अस्मिन् सूत्रे घकारस्य आवश्यकता एव नासीत्. केवलं द्वयोः शब्दयोः कृते जिष्णु भूष्णु किनिति च इति सूत्रे घकारः संयोजितः. आदौ एव तत्र प्रश्नं दत्तं, तत्र किनिति च इति सूत्रे यः गित् कित् नित् प्रत्ययस्य विषये तत्र लिखितमस्ति, अतः अत्र तत्र निवारणं दत्तं. गित् इत्युक्ते किमर्थम् अत्र गित् प्रत्यये तस्य आवश्यकता इति, जिष्णु अपि च भूष्णु तत्र इगन्त अङ्गम् अस्ति, अतः तत्र गुणनिषेधः भवेत् इति तस्य कृते अत्र अस्मिन् सूत्रे गित् प्रत्ययस्य विषये अपि तत्र चर्चा अस्ति. नो चेत् तत्र किं भवति, असाधु पदम् इति निष्पद्यते.
तदेव एकं पदं दत्तमस्ति खलु, कृति च सूत्रे गकारस्य प्रश्लेषः कृतः. इत्युक्ते कृति च सूत्रे कित्वस्य गित्वस्य ञित्वस्य पृथक्तया योजनं कृतमस्ति. गित्वस्य पृथक्तया योजनं किमर्थं कृतमस्ति इत्युक्ते इदमेव कारणम्. इत्युक्ते जी धातोः प्रसङ्गे गुणनिषेधः आवश्यकः, भूधातोः प्रसङ्गे गुणनिषेधः आवश्यकः भूष्णुः इति पदसाधनवेलायाम्. एवमेव स्थाधातोः प्रसङ्गे अनिष्टरूपापत्तिः मा भवतु. इत्युक्ते अनिष्टरूपापत्तिनिवारणार्थं केवलं स्थाश्नुः इति रूपसिद्धेः कृते, इत्युक्ते स्थीष्णुः इति अनिष्टं रूपं खलु, तस्य निवारणार्थम् अनिष्टरूपस्य निवारणार्थं ग्लाजिस्थश्चक्ष्णुः इत्यस्मिन् सूत्रे गित्वं स्थापितमस्ति. मूलसूत्रे गित्वमेव अस्ति, किन्तु सन्धिकार्यं कृत्वा तत्र ककारः दृश्यते इति वार्ता. अग्रे इतोपि किञ्चित् अस्ति. सुन्दरमहोदय भवान् पठतु.
केवलं द्वयोः शब्दयोः कृते जिष्णु भूष्णु ञति च भूष्णु इति कृते ञति च इति सूत्रे गकारः संयोजितः. तदेव पूर्वपरिच्छेदः आहत्य स्थायोगे स्नु स्थास्नु इत्यस्य साधनार्थम् एव संस्कृतव्याकरणे गित्वं विद्यते. किमपि अन्यत् कारणं नास्ति. एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियायाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः मास्तु, तासाञ्च चिन्तनं साधु एव इति. अत्र स्थाधातोः एव कृते एतत् ञति च इति सूत्रे गित्वस्य संयोजनं कृतम् इति कारणेन स्थायोगे स्नु स्थास्नु इत्यस्य साधनार्थमेव संस्कृतव्याकरणे गित्वं विद्यते. तत् एकमेव प्रक्रियां साधनार्थं गित्वं समावेशितः. किमपि कोऽपि अन्यत् कारणं नास्ति. एतदेव सर्वं दृष्ट्वा मातृभिः कं निश्चितम् इति पृष्टश्चेत् प्रक्रियायाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः एव मास्तु इति तासां च चिन्तनं साधु एव. माता डिसैड् मतलब निर्णयं कृतवती इति किं निर्णयः कः निर्णयः इत्युक्ते गित् प्रत्ययस्य समावेशः एव मास्तु इति माता निर्णयं कृतवती.
गित् प्रत्ययस्य समावेशः कुत्र मास्तु
ङिति च इति सूत्रे
न अत्र किं लिखितं गित् प्रत्ययस्य समावेशः मास्तु कुत्र प्रक्रियायाः समग्रदृष्ट्यां
प्रक्रियायाः समग्रदृष्ट्यां गित् प्रत्ययस्य समावेशः मास्तु इति माता डिसैड् कृतवती निर्णयं कृतवती.
अस्माकं शीर्षकमस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः. तदर्थमेव गित्वस्य चिन्तनं करणीयमेव. किन्तु एतत् सर्वं दृष्ट्वा केवलम् एकस्य शब्दस्य साधनार्थम् एव गित्वस्य चिन्तनं करणीयं खलु. अतः प्रक्रियायाः समग्रदृष्ट्या तस्य महत्त्वं किमपि नास्ति
इति तस्य अर्थः कः इत्युक्ते मतलब समावेशः मास्तु इति कृत्वा ङिति च इति सूत्रे कोऽपि परिवर्तनं भवति वा
न एकवारं वाक्यं पठतु. एतत् सर्वं दृष्ट्वा उपरि यद् लिखितमस्ति तत् सर्वं पठित्वा मातृभिः निश्चितं यत् प्रक्रियायाः समग्रदृष्ट्यां
ङित् प्रत्ययस्य समावेशः मास्तु
इति सा निश्चितवती. तदर्थमेव उपरितनेषु चित्रेषु गित्वं त्यक्तमस्ति. इत्युक्ते उपरितनचित्राणि पश्यामश्चेत् तत्र प्रत्ययः सार्वधातुकः आर्धधातुकः अपि च प्रत्ययः आर्धधातुक कित् नित् प्रत्ययः वा आर्धधातुक णित् नित् प्रत्ययः वा आर्धधातुक कित् नित् णित् नित् भिन्नप्रत्ययः वा एवं लिखितमस्ति. चित्रेषु कुत्रापि गित्वस्य प्रसङ्गे न लिखितमस्ति. प्रक्रियायाः सम्पूर्णदृष्ट्या गित्वस्य महत्त्वं नास्ति इति तस्याः चिन्तनम्. अत्र तासां च इति लिखितमस्ति. किमर्थं बहुवचनं
तासां च मर्यादायाः मातृभिः इति लिखितं किल
संस्कृतभाषायां मर्यादा इति शब्दस्य अर्थः भिन्नः. गौरवम् इति शब्दस्य मर्यादा इत्युक्ते सीमा खलु.
ओ सीमा ओके ओके सीमा एव बौण्ड्रि
स्थाश्नुः इति पदं वयं साधितवन्तः. किन्तु ग्लाजिस्थश्चक्ष्णुः इत्यस्मिन् सूत्रे गित्वं नास्ति चेत् का आपत्तिः स्थाश्नुः प्रसङ्गे? भवान् वदतु.
स्थाश्नुः इति प्रसङ्गे आपत्तिः एकः आपत्तिः अस्ति.
आपत्तिः इति स्त्रीलिङ्गपदं पद् धातुतः क्तिन् प्रत्ययः अस्ति.
एका आपत्तिः अस्ति. किमर्थं चेत् तत्र क्स्नु स्थायोगे क्स्नु इति योजने सति किं भवति ति स्थीयोगे स्नु इति भवति. किमर्थं चेत् यत्र घुमास्था गा पा जहा जहाति साम् हलि इति सूत्रेण अनेन स्थायोगे येषां धातूनाम् आकारस्य गु मा स्था गा पा हा ओहाक् सा शो येषां धातूनाम् आकारस्य स्थाने ईकारादेशः भवति. किं भवति हलादि कित् ङित् अर्धधातुकप्रत्यये परे कित् ङित् एव तत्र लिखितम् अस्ति. अत्र गित् न लिखितम् अस्ति. सो अतः कित् प्रत्यये परे अत्र अपि कित् प्रत्ययः अस्ति. स्नु इति कित् प्रत्ययः अस्ति इति कारणेन कित् प्रत्यये परे आकारस्य ईकारः आदेशरूपेण भवति इति कारणेन स्थायोगे स्नु ईक्वल् टु स्थीयोगे स्नु स्थीष्णु इति अनिष्टं रूपं सिद्ध्यति. तदेव
ग्लाजस्थश्चक्ष्णुः इत्यस्मिन् सूत्रे कित्वमस्ति चेत् तत्र समस्या जायते. कित्वमस्ति चेत् समस्या अस्ति, गित्वमस्ति चेत् समस्या नास्ति. इत्युक्ते अत्र घुमास्था गाप जहाति साम्हली सूत्रस्य निमित्तानि परिशीलनीयानि. अत्र हलादि कित्नित् प्रत्यये परे इति एव लिखितमस्ति. ग्लाजस्थस्य क्ष्णुः सूत्रे कित्वमस्ति चेत् घुमास्था गाप जहाति साम्हली सूत्रं कार्यं करोति. तदर्थमेव तत्र मूलसूत्रे तु गित्वमेव आवश्यकम् अनिष्टरूपनिवारणार्थं. गित् योजितः ग्लाजिस्तश्चक्ष्णुः सूत्रे इति विषयः. उत्तमम्. अग्रे काशिकायाः मतं लिखितम् अस्ति. नीलं भगिनी, भवती पठित्वा वदतु.
काशिकायामपि उक्तं यत् ग्लाजिस्तश्च कृष्णुः द्वितीयपादे नवत्रिंशत् अधिक एकशततम सूत्रम् इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् नाम तादृशः स्था धातु यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धि कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्थिष्णु अनिष्टरूपम् अनेन एव निवारयेत् येन गित्वस्य आवश्यकता न स्यात्. नाम प्रत्ययः स्नु इत्येव भवतु, गित्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते. अन्या दृष्ट्या अपि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं स्त्रां नास्ति. अत्र स्थायोग ऐ डिड् नाट् अण्डर्स्टाण्ड् वाट् सेयिङ्ग् ओवर् हियर्.
ममापि भ्रमः अस्ति. शुभदा भगिनी, भवती वदतु.
अत्र स्थायोगः अस्ति चेत् तत्र गित् अस्ति इति कारणात् तत्र घुमास्थागापा जहाति साम्हलि इत्यस्य प्रसङ्गः न भवति. अतः स्था इति एव तिष्ठति, तत्र ईत्वं न भवति इति वयं दृष्टवन्तः. तत्र परन्तु यदि स्था इत्यस्य स्थाने स्था इति वर्णविच्छेदः क्रियते चेत् स्थायोगः स्था इत्युक्ते स्थायोगः आ इति वयं तस्य वर्णविच्छेदः स्वीकुर्मः चेत् स्था आ इति. तदनन्तरं यदा क्ष्णु अस्ति चेत् अपि क्ष्णु इत्यस्य क्ष्णु अपि च स्था इत्येषां मध्ये क्षम्यताम् इत्यनयोः मध्ये आ इति आगच्छति. अतः घुमास्था गापा जहाति साम्हली इत्यस्य प्रसङ्गः तत्रापि न भवति. किमर्थं चेत् धातोः साक्षात् परं कित् प्रत्ययः नास्ति, मध्ये आ इति आयाति. अतः गित् नास्ति चेदपि एतादृशी समस्या
निवार्येत इति कीदृशं पदं
निवार्येत इति
नी उपसर्गपूर्वक वार्यते अस्ति चेत् कर्मणि लट् वार्यते इति रूपं भवितुं शक्नोति खलु वार्यते.
आम्, परन्तु अत्र तु कर्मणि विधिलिङ्ग् अस्ति इति मन्ये.
कर्मणि विधिलिङ्ग् अस्ति. अनिष्टं रूपम् अनेन निवार्येत.
अतः गित्वस्य आवश्यकता एव नास्ति. क्ष्णु ककारः क्ष्णु इत्यस्मिन् ककारः अस्ति चेदपि मध्ये यदि आ इति आयाति तर्हि स्था इत्यस्य स्थि इति न भवति. किमर्थं चेत् मध्ये आ अस्ति इति एकं समाधानं तत्र कृतमस्ति. समाधानं कृतमस्ति तत्र तु वन् रेमेडि इस् सजेस्टेड् वन् सोल्यूशन् इस् सजेस्टेड् वाय् यु नीड् नाट् टेक् गित्.
तदर्थमेव अत्र उपरितने परिच्छेदे किं लिखितमस्ति, एकः एव शब्दः गित् प्रत्ययम् उपयुज्य एकं सूत्रम् उपयुज्य साधितवन्तः. अपि च तदपि विवादास्पदं तत् रूपम् इत्युक्ते स्थाष्णुः इति रूपम् अन्येन उपायेन अपि ईत्संज्ञकगकारं विना अपि साधयितुं शक्यते इति वाक्यं तदर्थं लिखितमस्ति खलु.
आमाम्.
अन्येन उपायेन अपि इत्संज्ञकगकारं विना अपि स्थाश्नुः इति रूपं साधयितुं शक्यते इति तस्य समर्थनार्थम् अयं परिच्छेदः दत्तः.
परन्तु मम विचारः सम्यक् वा? यदा अहम् उक्तवती आ इति मध्ये आगच्छति अतः स्था इत्यस्य स्थि इति न भवति. ककारयुक्तस्नुप्रत्ययः परे अस्ति चेदपि इति विचारः सम्यक् अस्ति वा? मम अवगमनं सम्यक् अस्ति वा?
न जाने, ममापि भ्रमः अस्ति अत्र.
वयं तत्र दृष्टवन्तः व्याकरणे वयं किं वदामः, यत्किमपि कार्यं तत्र भवति तस्य सूत्रम् आवश्यकं. सो आ इति कुतः आयाति?
तस्य वर्णविच्छेदः तेन क्रियते. स्था इति इत्युक्ते किं? स्था योगः आ इति अपि वक्तुं शक्यते. स्था आ इति वक्तुम् अपि शक्यते. तस्य अर्थः अपि स्था एव भवति. अतः तत्र दत्तमस्ति इति सूत्रे स्था इत्यनेन स्था आ इति स्वीक्रियते चेत् तत्र साक्षात् दत्तं नास्ति. परन्तु वयं यदि स्था आ इति स्वीकुर्मः तदा नाम तादृशः स्था धातोः यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धिः सन्धिं कृत्वा स्था इत्येव सूत्रे जायते इति मन्यामहे चेत् स्थिस्नु इति अनिष्टरूपम् अनेन एव निवार्येत येन गित्वस्य आवश्यकता एव नास्ति इति. स्नु स्नु अपि आगच्छति चेदपि ककारः अस्ति चेदपि मध्ये आगच्छति. धातोः साक्षात् परं नास्ति स्नु इति प्रत्ययः इति कृत्वा तत्र घुमास्था गापा जहातिका मलि इति सूत्रं कार्यमेव न करोति. तत्र सी इति न भवति एव. अतः गित्वं न भवति एव चेदपि पर्याप्तम् इति मम चिन्तनम्.
अहं चिन्तयामि यत् तद्दृष्ट्या किं भवति इत्युक्ते स्थायोगे ई स्थे स्थे स्नु इति भवति. तादृशं कृतं चेत् स्था योगे आ योगे स्नु स्नु इति वयं स्वीकुर्मश्चेत् किं भवति? स्थायोगे ईकारः ईकारः अत्र आगच्छति किल स्थे स्थायोगे ई योगे स्नु स्नु स्थेष्णु इति भवति.
तदपि आकारस्य स्थाने ईकारः भवति. आ योगे ई तत्र अनन्तरम् ईकारः नास्ति. स्था इत्यस्य आकारस्य स्थाने ईकारः.
सूत्रं परिवर्तनं करोति किल. परिवर्तनं भूत्वा स्था योगे ई योगे ईकारः आगच्छति. द्वितीयवारम् आ योजयामश्चेत् तत्र स्था योगे आ इति स्था योगे आ योगे स्नु स्नु तदनन्तरं स्था योगे ई योगे स्नु देन् इट् बिकम् सन्धि गुणसन्धिः भूत्वा स्थे योगे स्नु स्थे स्नु इति अनिष्टं रूपं सिद्ध्यति.
परन्तु आ इति धातोः अवयवः नास्ति. आ इति वि हेव् डिवैडेड् इट् इन् टु स्था एण्ड् आ, बट् देट् इस् नाट् द अवयव आफ् स्था.
अवयवस्य
परिवर्तनं कथं भवेत्?
परिवर्तनं न भवेत्. ओके. तादृशं जस्ट् लैक् दट् वि केन् आड् एनिथिङ्ग् लैक् इन् बिट्वीन् इस् इट् ऐ डोण्ट् नो.
सिद्धान्तकौमुदी ऐ फौण्ड् दोस् पीपल् हु आर् पण्डिताः विवृण्वन्ति ते सर्वे लैक् दीस् कैण्ड् आफ् सोल्यूशन्स् दे टेक् एण्ड् देन् दे फैण्ड् सम् सोल्यूशन् सम् लूप् होल्स् दे फैण्ड् एण्ड् देन् देर् इस् खण्डनं देन् देर् इस् मण्डनं सम् पीपल् अग्री वित् दिस् सम् पीपल् डोण्ट् अग्री वित्
भाषापाकः इति सब्जेक्ट् मध्ये तदेव भवति. प्रतिसप्ताहे तदेव.
सिद्धान्तकौमुद्याः कानिचन व्याख्यानानि शृण्वन्ती अस्मि. तत्र बहु किमपि ऐ डोण्ट् अण्डर्स्टाण्ड्. परन्तु some of the things I do understand. So they do this, like there is a solution. They do some khandanam, mandanam. Some people they introduce some different varna vichyas, shabda vichyas, and then they try to make it up and all that.
Vivrunoti, vivrunutah, vivrunvanti. इति रूपं भवति बहुवचने. सारांशः कः इति परिशीलयामश्चेत् केवलम् एकस्य शब्दस्य कृते गित्वस्य आवश्यकता मास्तु इति एव काशिकाकारस्य मतमपि. इत्युक्ते काशिकाकारस्य मतेन अथवा मातृभिः मतेन तत्र विचारः तु समानः एव.
प्रश्लेषः इति पदं कुत्र आगच्छति? प्रश्लेषः इति पदम् अत्र लिखितं. प्रश्लेषः इत्युक्ते प्रवेशं वा प्रवेशः वा?
लोके रूढिः भिन्नरीत्या अभवत्, तत्र योगार्थः भिन्नः. प्रश्लेषः इत्युक्ते सम्यक् आलिङ्गनम् इति अर्थः अस्ति. श्लिषधातोः अर्थः तु आलिङ्गनम्. श्लिषधातुतः श्लेषः इति रूपं सिद्ध्यति. अत्र प्रसङ्गः कः इति प्रश्ने सति क्निति च सूत्रे गित्वस्य प्रश्लेषः किमर्थं कृतमस्ति? क्निति च सूत्रे गित्वं किमर्थं योजितमस्ति, किमर्थम् आयोजितमस्ति पृथक्तया इति. अस्मिन् सन्दर्भे भिन्न अर्थः अस्ति.
आयोजनम् इति अर्थः
सन्दर्भानुगुणं तत्र अर्थः भिद्यते खलु. वस्तुतः स्लिष् धातुतः श्लेषः इति रूपं सिद्ध्यति. श्लिषादयः धातवः इति क्तान्तरूपाणां प्रसङ्गे वयं पठितवन्तः. आश्लिष्टः इत्यनेन आलिङ्गनम् इति अर्थः अस्ति. काशिकाकारस्य मतेन अपि गित्वस्य आवश्यकता नास्ति. किमर्थं चेत् एकस्य शब्दस्य निष्पादनार्थं गित्वम् आवश्यकमस्ति. तत् कार्यम् अन्येन उपायेन अपि साधयितुं शक्यते इति कारणतः गित्वस्य आवश्यकता नास्ति. अतः एव उपरितनेषु चित्रेषु गित्वस्य प्रसङ्गः नास्ति. अनेन पाठः समाप्तः. अग्रिमे सप्ताहे अन्येषां विषयाणां प्रसङ्गे चिन्तनं करिष्यामः. इदानीम् अत्र स्थगयामः.
धन्यवादः.
धन्यवादः.